एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली निगदति नेपालस्य स्वसेव अनुभवस्य आवश्यकतायाश्च आधारेण सत्य निरूपणम् मेल प्रवृत्तिनाम् सशस्त्र द्वन्द्वकालिक विषयाणाम् निष्कर्षे प्रापणस्य कार्यम् विधास्यते। महान्यायाधिवक्तुः कार्यालये ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री ओली अन्य देशानां स्थितेः अवलोकनस्य अपेक्षया स्वस्यैव मौलिक संरचना याः अनुसारेण सशस्त्र द्वन्द्वकालिकानां विषयाणां निर्णय प्रापणत्वेन दलैः विमृश्यमानम् अस्तीति असूचयत्। प्रधानमन्त्री ओली संसदि विचाराधीनस्य सत्य निरूपण मेलायोग सम्बद्ध विधेयकस्य पारिधि भवनानन्तरं नेपालस्य न्याय प्रणाली नवीन युगम् प्रवेक्षति। द्वन्द्व व्यवस्थापनस्य सन्दर्भे नेपालस्य न्याय प्रणाली विश्वस्यैव कृते नूतनोद्धा उदाहरणस्य रूपेण स्थापयिष्यतीति च विश्वासम् व्यक्तवान्। प्रधानमन्त्री ओली नेपालीषु सामाजिक सद्भावस्य विशृंखलनत्वेन सामाजिक सञ्जालानाम् दुरूपयोगस्य वर्धनम् प्रति सर्वकार सचेष्टोऽस्तीति भाषमाणा अनुचित गतिविधि नियन्त्रयितुम् जनतायाः उचित याचनाः समय एव सम्बोधयितुम् च सर्वकार क्षमोऽस्तीति च समस्पष्टयत। कार्यक्रमे महान्यायाधिवक्ता केशव बडालः जघन्यापराध सम्बद्ध न्याय प्रणाल्याः सुधाराय न्यायिक प्रकरणानाम् अनुसन्धानम् अभियोजना प्रणाली च वैज्ञानिकी व्यवहारिकी च विधेयति प्रावोचत्। प्रधानमन्त्री केपी शर्मा ओली भाषते युवानः उद्यमशीलान् विधातुम् कार्यक्रमः योजनाश्च निर्मीयमाणाः सन्ति। अन्तर्राष्ट्रिय युवदिवसस्य अवसरे आयोजिते नेपाली युव सम्मेलनस्य समापन कार्यक्रमे ह्य प्रधानमन्त्री ओली अधिकजनेभ्यः वृत्त्युपार्जनम् प्रदातुम् लघुद्यम कार्यक्रमैः विकासानाम् गतिम् वर्धयितुम् च सर्वकारः क्रियाशीलो वर्तते इत्यभासत। देशे वृत्त्युपार्जनस्य अवसराभावात् युववर्गः विदेशम् प्रति पलायमानो स्थिति चिन्ताम् प्रकटयन् प्रधानमन्त्री ओली आगामी दिनेषु नेपालः ज्येष्ठ नागरिकाणामेव आवासभूमि भवितुम् शक्नोतीति विषये विचारयितुम् यूनः अन्वरुणत्। प्रतिनिधिसभाया ह्यस्तनोपवेशे सांसदैः भ्रष्टाचारस्य न्यूनीकरणस्य ट्रकयानमार्गस्य समस्यायाः समाधानस्य स्वदेशे एव वृत्त्युपार्जनानां सर्जनस्य विधीनां निर्माणस्य च विषयेषु सर्वकारस्य ध्यानम् आकर्षितम् वर्तते। उपवेशे नेपाली कांग्रेस दलस्य सांसदाः गगन कुमार थापा, असीम शाह, रोशन कार्की, राजेन्द्र प्रसाद पाण्डे, रंजु कुमारी झा, अब्दुल खान, राम प्रकाश चौधरी, प्रेम सुबालस चेति सांसदः सामयिक विषयेषु सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायां विलोपितानां जनानाम् अन्वेषण सत्य निरूपण मेलायोग सम्बद्धस्य तृतीय संशोधनस्य विधेयक सम्बद्धम् समितेः एतद्विक्रमवर्षीयम् प्रतिवेदनम् प्रस्तुतमस्ति। उपवेशे विधि न्याय मानवाधिकार समितेः सभापति विमला सुवेदी प्रतिवेदनमिदम् प्रास्तौत। एवमेव उपवेशे पूर्वाधार विकास समितेः सभापति दीपक बहादुर सिंह गतविक्रमवर्षीयम् पूर्वाधार विकास समितेः वार्षिकम् प्रतिवेदनम् प्रास्तौत। सभापतेः सिंह कतिपय विकास योजनाः राजनीतिका द्वन्द्वग्रस्ताः सन्ति यथा तेषाम् प्रतिफलम् अनिश्चितम् सम्भूतमस्तीति अभासत। एवमेव उपवेशे शिक्षा स्वास्थ्य सूचना प्रविधि समितेः सभापति अमर बहादुर थापा शिक्षा स्वास्थ्य सूचना प्रविधि समितेः तद्विक्रमवर्षीयम् वार्षिक प्रतिवेदनम् प्रास्तोत। उपवेशे सभामुख देवराज घिमिरे संयुक्त समितेः अन्तर्गतस्य राज्यस्य निर्देशिका सिद्धान्त नीति दायित्वस्य क्रियान्वयनानुगमन मूल्याङ्कन समितौ सदस्यानाम् नाम्नाम् परिवर्तनस्य सूचनाम् अश्रावयत। प्रतिनिधिसभायाः अपरोपवेश अद्य दिवा एकवादने वसति। संसदीय श्रवण समित्या सप्तदशानाम् देशानाम् कृते प्रस्तावितानाम् राजदूतानाम् श्रवणस्य प्रक्रिया प्रारब्धा वर्तते। समितेः ज्येष्ठ सदस्यस्य पशुपति शमशेर जबराई त्यस्य अध्यक्षतायाम् ह्यः सम्पन्नेन उपवेशेन प्रस्तावितानाम् राजदूतानाम् सम्बन्धे दश दिवसानाम् अभ्यन्तरे सार्वजनिक सूचनया न्यायिक निवेदनस्य प्रस्तुत्यै आह्वानाय निर्णीतमस्ति। नेपालस्य संविधानस्य 290-तम्याः धारायाः अनुसारेण राजदूतपदे परामृष्टानाम् जनानाम् संसदीय श्रवण समित्या श्रवणस्य व्यवस्था वर्तते। सर्वकारेण खाद्य व्यवस्था व्यापार संस्थानस्य महाप्रबन्धक पदे धादिङ जनपदस्य रमेशाचार्यम् नियोक्तुम् निर्णीतमस्ति। एवमेव उपवेशेन नेपाल पारवहन भण्डारण व्यवस्था संस्थानस्य महाप्रबन्धक पदे इलाम जनपदस्य प्रकाश प्रसाद पोखरेलम् नियोक्तुम् निर्णीतम् अस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ अज्ञापयत्। अस्यैव श्रावणस्य 28 दिवसे सोमवासरे उपविष्टस्य मन्त्रिपरिषदः उपवेशस्य निर्णयान् सार्वजनिकर्तुम् ह्यः संचार मन्त्रालय आयोजिते पत्रकार सम्मेलने संचार मन्त्री गुरूङ सर्वकारेण संघीय भूपयोग परिषद सदस्य पदे चितवन जनपदस्य रेवती रमण पौडेलम डाक्टर यमुना घले इतिमाम च काष्ठमण्डपस्य डाक्टर रेशमा श्रेष्ठम जगत बहादुर देवाभिधम च मनोनेतुम निर्णीतम वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिना सह संयुक्त अधिराज्य बेलायत देशस्य राजदूतेन रोब प्रेन इत्यनेन ह्यः शिष्टाचार मेलवार्ता विहितास्ति। सीमा प्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये सम्भूते अनयोर्मेलने द्वयोः देशयोः शताब्दीभ्यः स्थितस्य पारस्परिक सम्बन्धस्य अभिरुचेश्च विविधेषु विषयेषु विमृष्टम् वर्तते। तदवसरे प्रधानमन्त्री ओली सर्वकारेण समृद्ध नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षाम् पूरयितुम् प्रयत्यते इति प्रावोचत। राष्ट्रियसभाया विकासार्थिक विषय सुशासन समितेः उपवेशेन सुशासनस्य संस्थापनाय राष्ट्रिय सदाचार नीतेः आवश्यकताया विषये विमृष्टम् वर्तते। समितेः ह्यस्तनोपवेशे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया शासने अधिष्ठिताः जनाः सदाचारहीनाः सन्ति इति हेतोः देशे अत्यधिक नैराश्यम् वर्तते इत्यतः सदाचार नीतेः आवश्यकता अस्ति इति अवोचत। विमर्शने सांसदाः विद्यालयस्तरस्य पाठ्यक्रमेषु नैतिक शिक्षाया समावेशः समाजे परिवारे च कलहोत्पादकानाम् विषयाणाम् निराशा नित्या वित्तीय क्षेत्रस्य धार्मिक संस्थानाम् योजना करणीया इत्यभोचत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति संचार परिषद स्वायत्तता स्वतन्त्रता च विधास्यते। राष्ट्रिय सभान्तर्गतायाः विधायन व्यवस्थापन समिते ह्यस्तनोपवेशे मन्त्री गुरूङ संचार परिषद संघटनानन्तरम् नेपालस्य संचार जगत इतोपि स्वतन्त्रा मर्यादिता च भविष्यतीति विश्वासम् अभिव्यनक। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी कृषि मन्त्रालयस्य पूर्व सचिवैः सह विमृष्टवान् वर्तते। विमर्शने मन्त्री अधिकारी पूर्व सचिवानाम् परामर्शनम् क्रियान्वेष्यते इति प्रतिबद्धताम् व्यक्तवान्। कृषिक्षेत्रे विगतकालिकाः वर्तमानाश्च दृष्टाः समस्याः समाधाय कृषि मन्त्रालयस्य कृषकेषु मध्ये सम्बन्धस्य स्थापनम् प्रमुखमुद्देश्यमस्ति एतदर्थम् पूर्व सचिवानाम् परामर्शनम् महत्वपूर्णम् शेष्यति इति मन्त्री अधिकारी विश्वासम् व्यक्तवान् इति समाचाराः।